प्रद्युम्नो रौक्मिणेयः स खलु तव कला शम्बरेणाहृतः तं हत्वा रत्यासहाप्तो निजपुरम् अहरद्रुक्मिकन्यां च धन्यां तत्पुत्रोऽथ अनिरुद्धो गुणनिधिरवहत् रोचनां रुक्मिपौत्रीं तत्रोद्वाहे गतस्त्वं न्यवधिमुसलिना रुक्म्यपि द्यूतवैरात् बाणस्य वा बलिसुतस्य सहस्रबाहोः माहेश्वरस्य महिता दुहिता किलोषा त्वत्पौत्रमेनमनिरुद्धमदृष्टपूर्वं स्वप्नेऽनुभूय भगवन् विरहातुराभूत् योगिन्यतीव कुशला खलु चित्रलेखा तस्या सखी विलिखति तरुणानशेषान् तत्र अनिरुद्धम् उषया विदितं निशायाम् आनेष्टयोगबलतः भवतो निकेतात् कन्यापुरे दयितया सुखमारमन्तं चैनं कथञ्चन बबन्धुषि शर्वबन्धौ श्रीनारदोक्ततदुदन्तदुरन्तरोषैः त्वं तस्य शोणितपुरं यदुभिर्न्यरुन्धाः पुरीपालः शैलप्रियदुहितृनाथोऽस्य भगवान् समं भूतव्रातैः यदुबलमशङ्कं निरुरुधे महाप्राणो बाणो झटिति युयुधानेन युयुधे गुहः प्रद्युम्नेन त्वमपि पुरहन्त्रा जघटिषे निरुद्धाशेषास्त्रे मुमुहुषि तवास्त्रेण गिरिशे द्रुताभूता भीताः प्रमथकुलवीराः प्रमथिताः परास्कन्दत् स्कन्दः कुसुमशरबाणैश्च सचिवः स कुम्भाण्डो भाण्डं नवमिव बलेनाशु बिभिदे चापानां पञ्चशत्या प्रसभम् उपगते छिन्नचापेथ बाणे व्यर्थे याते समेतो ज्वरपतिः अशनैः अज्वरि त्वज्वरेण ज्ञानी स्तुत्वाथ दत्त्वा तव चरितजुषां विज्वरं सज्वरोगात् प्रायः अन्तर्ज्ञानवन्तोऽपि च बहुतमसा रौद्रचेष्टा हि रौद्राः बाणं नानायुधोग्रं पुनरभिपतितं दर्पदोषाद्वितन्वन् निर्लूनाशेषदोषं सपदि बुबुधुषा शङ्करेण उपगीतः तद्वाचा शिष्टबाहुद्वितयम् उभयतो निर्भयं तत्प्रियं तं मुक्त्वा तद्दत्तमानो निजपुरमगमः सानिरुद्धः सहोषः मुहुस्तावच्छक्रं वरुणमजयो नन्दहरणे यमं बालानीतौ दवदहनपाने अनिलसखं विधिं वत्सस्तेये गिरिशमिह बाणस्य समरे विभो विश्वोत्कर्षी तत् अयमवतारो जयति ते द्विजरुषा कृकलासवपुर्धरं नृगनृपं त्रिदिवालयमापयन् निजजने द्विजभक्तिम् अनुत्तमाम् उपदिशन् पवनेश्वर पाहि माम्। ओं तत्सतिति श्रीमन्नारायणीये द्व्यशीतितमं दशकं समाप्तम्। श्रीहरये नमः। रमा रमण गोविन्दा गोविन्दा श्रीकृष्णार्पणमस्तु।